राम गीता जी का पाठ 18वां अध्याय श्लोक 31 से 40 तक। राम
वसुदेव सुसंदेव हंसजानोरमर्दनम् देवकी परमानन्दम् कृष्णं वन्दे जगद्गुरुम् यया धर्ममधर्मं ते कार्यं च कार्यमेव च अयथावत्त्वजानाति बुद्धि सा पार्थराजसि अधर्मं धर्ममिति या मान्यते तमसावृता सर्वार्थान्यपरीशांस्त बुद्धि सा पार्थतामसि धृत्यायाधारयते मनः प्राणेन्द्रियक्रिया योगेनाभिचारेण धृतिः सा पार्थसात्विकी यातु धर्मकामार्था धृत्याधारयते विना प्रसङ्गेन फलाकाङ्क्षे श्रुति सा पार्थराजसि यया स्वप्नं भयं शोकं विशालं मदमेव ते न विमोचति दुर्वेदा श्रुति सा पार्थतामसि सुखं पिदानं त्रिविधं श्रुणे भरतर्षव अभ्यासाद्रमते यत् दुःखान्तं च निगच्छति यत्तदग्रे विषमिव परिणामे मृतोपमं तत्सुखं सात्विकं गोप्य स्वात्मबुद्धे प्रसारजन् विषयेन्द्रियसंयोगा यत्तदग्रे मृतोपमं परिणामे विषमिव सह सुखं राजसंस्कृतम् यदग्रे चानुबन्धेत सुखं मोहनमात्मना निद्रालस्य प्रमादोत्थं तत्तामसमुदारितम् न तदस्ति पृथिव्यं वा त्रिविदेवेषु वा पुनः सत्त्वं प्रकृतिजैर्मुक्तं यदि स्यात्त्रिभुजुणैः न तदस्ति पृथिव्यं वा त्रिविदेवेषु वा पुनः सत्त्वं प्रकृतिजैर्मुक्तं यदि स्यात्त्रिभुजुणैः वसुदेव सुतं देवं पंशजानोरमर्दनम् देवकी परमानन्दम् कृष्णं वन्दे जगद्गुरुं कृष्णं वन्दे जगद्गुरुं
हरे शरणं हरे शरणं हरे शरणं हरे शरणं हरि 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 शरणं।